विप्रोषितकुमारं तत् राज्यमस्तमितेश्वरं रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ
विप्रोषितेति विप्रोषिताः गताः कुमाराः यस्मिंस्तत्तथोक्तम् अस्तमितः मृतः ईश्वरः राजा यस्य तत्तथोक्तम् तद्राज्यम् रन्ध्रान्वेषणदक्षाणाम् द्विषाम् आमिषताम् भोग्यवस्तुताम् ययौ आमिषम् भोग्यवस्तुनि इति केशवः
अथानाथाः प्रकृतयः मातृबन्धुनिवासिनम् मौलैरानाययामासुः भरतम् स्तम्भिताश्रुभिः
अथेति अथ अनाथाः प्रकृतयः अमात्याः प्रकृतिः सहजेयो नावमात्ये परमात्मनि इति विश्वः मातृबन्धुषु निवासिनम् भरतम् स्तम्भिताश्रुभिः पितृमरणगुप्त्यर्थम् इति भावः मौलैः आप्तैः सचिवैः आनाययामासुः आगमयाञ्चक्रुः
श्रुत्वा तथाविधम् मृत्युम् कैकेयी तनयः पितुः मातुर्न केवलम् स्वस्याः श्रियोऽप्यासीत् पराङ्मुखः
श्रुत्वेति कैकेयीतनयः भरतः पितुः तथाविधम् स्वमातृमूलम् मृत्युम् मरणम् श्रुत्वा स्वस्याः मातुः केवलम् मातुरेव पराङ्मुखो न किन्तु श्रियः अपि पराङ्मुखः आसीत्
ससैन्यश्चान्वगाद्रामम् दर्शितानाश्रमालयैः तस्य पश्यन् ससौमित्रेः उदश्रुर्वसति द्रुमान्
ससैन्य इति ससैन्यो भरतः रामम् अन्वगाच्च किङ्कुर्वन् आश्रमालयैः वनवासिभिः दर्शितान् एते रामनिवासा इति कथितान् ससौमित्रेः लक्ष्मणसहितस्य तस्य रामस्य वसतिद्रुमान् निवासवृक्षान् पश्यन् उदश्रुः उद्गतबाष्पः रुदन्
चित्रकूटवनस्थम् च कथितस्वर्गतिर्गुरोः लक्ष्म्या निमन्त्रयाञ्चक्रे तमनुच्छिष्टसम्पदा
चित्रकूटेति चित्रकूटवनस्थम् तम् रामम् च गुरोः पितुः कथितस्वर्गतिः कथितपितृमरणः सन् इत्यर्थः अनुच्छिष्टा अननुभूतशिष्टा सम्पत् गुणोत्कर्षः यस्याः सा सम्पत् भूतौ गुणोत्कर्षे इति केशवः तया लक्ष्म्या करणेन निमन्त्रयाञ्चक्रे आहूतवान्
स हि प्रथमजे तस्मिन् अकृतश्रीपरिग्रहे परिवेत्तारमात्मानम् मेने स्वीकरणाद्भुवः
स इति स हि भरतः प्रथमजे अग्रजे तस्मिन् रामे अकृतश्रीपरिग्रहे सति स्वयम् भुवः स्वीकरणात् आत्मानम् परिवेत्तारम् मेने परिवेत्तानुजोनूढे ज्येष्ठे दारपरिग्रहात् इत्यमरः भूपरिग्रहोऽपि दारपरिग्रहसम इति भावः
तमशक्यमपाक्रष्टुम् निदेशात् स्वर्गिणः पितुः ययाचे पादुके पश्चात् कर्तुम् राज्याधिदेवते
तमिति स्वर्गिणः पितुर्निदेशात् अपाक्रष्टुम् निवर्तयितुम् अशक्यम् तम् रामम् पश्चात् राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे।
स विसृष्टस्तथेत्युक्त्वा भरात्रा नैवाविशत्पुरीं नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्।
स इति स भरतः भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टस्सन् पुरीम् अयोध्यां नाविशदेव। किन्तु नन्दिग्रामगतस्सन् तस्य रामस्य राज्यं न्यासमिव निक्षेपमिव अभुनक् अपालयत्, न तु उपभुक्तवानित्यर्थः। अन्यथा भुजोनवने इत्यात्मनेपदप्रसङ्गात् भुजेर्लङ्
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत्।
दृढभक्तिरिति ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखो भरतः इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्म अकरोदिव इत्युत्प्रेक्षा। दृढभक्तिरित्यत्र दृढशब्दस्य स्त्रियात् पुंवत् इत्यादिना पुंवद्भावो दुर्घटः, अप्रियादिषु इति निषेधात्, भक्तिशब्दस्य प्रियादिषु पाठात्। अतः दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात् सिद्धमिति समाधेयम्। वृत्तिकारश्च दीर्घनिवृत्तिमात्रपरः दृढभक्तिशब्दः लिङ्गविशेषस्य अनुपकारकत्वात् स्त्रीत्वम् अविवक्षितमेव, तस्मात् अस्त्रीलिङ्गत्वात् दृढभक्तिशब्दस्य अयं प्रयोगः इत्यभिप्रायः। न्यासकारोऽपि एवम्, भोजराजस्तु कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठात् भवानीभक्तिरित्यादौ कर्मसाधनत्वात् पुंवद्भावप्रतिषेधः दृढभक्तिः इत्यादौ भावसाधनत्वात् पुंवद्भावसिद्धिः पूर्वपदस्येत्याह।
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् चचारसानुजः शान्तः वृद्धेक्ष्वाकुव्रतं युवा।
राम इति सानुजः शान्तः रामः अपि वैदेह्या सह वने वन्येन वनभवेन कन्दमूलादिना वर्तयन् वृत्तिं कुर्वन् जीवन् वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचारा।